दस जनते हैं। ओम भद्रं कर्णे भिश्रुणु याम देवा भद्रं पश्ये माक्ष्य भद्रं पश्ये माक्षभिर्यजत्रा स्थिरैरंगै सुष्टुवागुंसस्तनुभिः यसेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु। ॐ शान्ति शान्ति शान्तिः। नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः नमो वाचस्पतये नमो विष्णवे बृहते करोमि। ॐ शान्ति शान्ति शान्तिः। तच्छंयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजं शं नो अस्तु द्विपदे शं चतुष्पदे। ॐ शान्ति शान्ति शान्तिः। नमो वाचे याचोदिताय चानुदिता तस्यै वाचे नमो नमो वाचे नमो वाचस्पतये नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो मामां ऋषयो मन्त्रकृतो मन्त्रपतयः परम् दुर्माहं ऋषीन्मन्त्रकृतो मन्त्रपतीन् परादाम् वैश्वदेवीं वाचमुद्यासगुं शिवामदस्तां जुष्टां देवेभ्यः शर्म मेद्यौ शर्म पृथिवी शर्म विश्वमिदं जगत् शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्म प्रजापति भूतं वदिष्ये भुवनं वदिष्ये तेजो वदिष्ये यशो वदिष्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये तस्मा अहमिदमुपस्तरणमुपस्तृण उपस्तरणं मे तस्मा अहमिदमुपस्तरण तस्मा अहमिदमुपस्तरणमुपस्तृण उपस्तरणं मे प्रजायै पशूनां भूयादुपस्तरणमहं प्रजायै पशूनां भूयासं प्राणपानौ मृत्योर्मपातं प्राणपानौ ममाहासिष्टं मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्यां मनुष्येभ्यस्तं मां देवा अवन्तु शोभायै पितरो नुमदन्तु। ॐ शान्ति शान्ति शान्तिः। शं नो वातः पवतां मातरिश्वा शन्नस्तपतु सूर्यः अहानिशं भवन्तु नश्यगुं रात्रि प्रतिधीयतां शमुषा नो व्युच्छतु शमादित्य उदेतु नः शिवा नश्यन्तमा भव सुमृडीका सरस्वती मा ते व्योम संदृशी इडायै वास्त्वसि वास्तु मद्वास्तु मन्तो भूयास्म मा वास्तो ओश्चित्मह्य वास्तु सभूयाद्यो ओस्मान् द्वेष्टि यञ्च वयं द्विष्मः प्रतिष्ठासि प्रतिष्ठावन्तो भूयास्म मा प्रतिष्ठायाश्चित्मह्य प्रतिष्ठस्य भूयाद्यो ओस्मान् द्वेष्टि यञ्च वयं द्विष्मः आवातवाहि भेषजं विवातवाहि यद्रपः त्वगुंहि विश्वभेषजो देवानां दूत ईयसे द्वाविमौ वातौ वात आसिन्धोरापरावतः दक्षं मे अन्य आवातु परान्यो वातु यद्रपः यददो वातते गृहे मृतस्य निधिर्हितः ततो नो देहि जीवसे ततो नो देहि भेषजं ततो नो मह आवह वात आवातु भेषजं शम्भूर्मयो भूर्णो हृदे प्रण आयुगुंषितारिषत् इन्द्रस्य गृहोऽसि तन्त्वा प्रपद्ये स गुस्सा श्वः सहयन्मे अस्ति तेन भू प्रपद्ये भुव प्रपद्ये सुव प्रपद्ये भूर्भुव सुव प्रपद्ये वायुं प्रपद्येन आर्तां देवतां प्रपद्ये श्मनमखणं प्रपद्ये प्रजापतेर्ब्रह्मकोशं ब्रह्म प्रपद्य ॐ प्रपद्ये अन्तरिक्षम् उर्वन्तरं बृहदग्नय पर्वताश्च यया वातस्वस्त्या स्वस्तिमान्तया अस्वस्त्या स्वस्तिमानसानि प्राणापानौ मृत्योर्मापातं प्राणापानौ मामाहसिष्टं मयि मेधां मयि प्रजां मयि यज्ञस्तेजो दधातु मयि मेधाम् मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु द्युभिरक्तुभिः परिपातमस्मानरिष्टेभिरश्विना सौभगेभिः तन्नो मित्रो वरुणो मामहन्ता मदिति सिन्धुः पृथिवी उत द्यौः कयानश्चित्र आभुवदूती सदा वृथः सखा कयानश्चित्र आभुवदूती सदा वृधः सखा कयासचिष्ठया वृता कस्त्वा सत्यो मदानां मगुंहिष्ठो मत्सदन्धसः दृढा चिदारुजेवसु अभीषु नः सखीना मविता जरित्रोणां शतं भवास्युतिभिः वयस्सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः अपध्वान्तमूर्णुः पूर्धिचक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् शन्नो देवीरभिष्टय आपो भवन्तु पीतये संयोरभिस्रवन्तु नः ईशाना वार्याणां क्षयन्तीश्चरुषणीनाम् अपो याचामि भेषजं सुमित्रा न आप ओषधयः सन्तु दुर्मित्रास्तस्मै भूया सूर्यो ओस्मान् द्वेष्टि यञ्च वयं द्विष्मः आपो हिष्टामयो भुवस्तान ऊर्जे दधातन महेर्णायचक्षसे यो वस्सिवतमोरसस्तस्य भाजयते हनः उशतीरिव मातरः तस्मा अरङ्गमामवो यस्य क्षया यजिन्वथ आपो जनयथाचनः पृथिवी शान्ता साग्निना शान्ता सा मे शान्ता सुजगुंशमयतु अन्तरिक्षगुं शान्तं तद्वायुना शान्तं तन्मे शान्तगुं सुजगुं शमयतु द्यौ शान्त सादित्येन शान्त सा मे शान्त सुजगुं शमयतु पृथिवी शान्तिरन्तरिक्षगुं शान्तिर्द्यौ शान्तिर्दिशा दिशः शान्ति पृथिवी शान्तिरन्तरिक्षगुं शान्तिर्द्यौ शान्तिर्दिशः शान्तिरवान्तरदिशा शान्तिरग्निःशान्तिर्वायुः शान्तिरादित्यः शान्तिश्चन्द्रमा शान्तिर्नक्षत्राणि शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्ति ऋगौ शान्तिरजा शान्तिरश्वः शान्ति पुरुषः शान्तिर्ब्रह्म शान्ति ब्रह्म शान्तिर्ब्राह्मणः शान्तिः शान्तिरेव शान्तिः शान्तिर्मे अस्तु शान्तिः तयाहगुं शान्त्या सर्वशान्त्या मह्यं द्विपदे चतुष्पदे च शान्तिं करोमि शान्तिर्मे अस्तु शान्तिः ये ह्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मोत्तिष्ठन्त मनोत्तिष्ठन्तु मा मागुं श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मा महाशिशुः उदायुषा स्वायुषो दोषधीनागुम् उदायुषा स्वायुषो दोषधीनागुं रसेनोत्पर्जन्यस्य सुष्मेणोधस्ता ममृतागुम् अनु उदायुषा स्वायुषो दोषधीनागुं रसेनोत्पर्जन्यस्य सुष्मेणोधस्ता ममृतागुम् अनु तच्चक्षुर्देवहितं पुरस्ता आच्छुक्रमुच्चरत् पश्येम शरदशतं जीवेम शरदशतं नन्दाम शरदशतं मोदाम शरदशतं भवाम शरदशतगुं शृणवाम शरदशतं प्रब्रवाम शरदशतमजीतास्याम शरदशतं जोक्च सूर्यं दृशे य उदगान्महतोर्णवा अद्विभ्राजमानः शरीरस्य मध्यात्समा वृषभो लोहिताक्षः सूर्यो विपच्छिन्मनसा पुनातु ब्रह्मणश्चोतन्यसि ब्राह्मण आणीस्थो ब्रह्मण अणि ब्रह्मणश्चोतन्यसि ब्रह्मण आणीस्थो ब्रह्मण आवपनमसि धारितेयं पृथिवी ब्रह्मणा महीधारितमेनेन महदन्तरिक्षं दिवं दाधार पृथिवीगुं सदेवां यदहं वेद तदहं धारयाणि मामद्वेदोधिविस्रसतु ब्रह्मणश्चोतन्यसि ब्रह्मण आणीस्थो ब्रह्मण आवपनमसि धारितेयं पृथिवी ब्रह्मण महीधारितमेनेन महदन्तरिक्षं दिवं दाधार पृथिवीगुं सदेवां यदहं वेद तदहं धारयाणि मामद्वेदोधिविस्रसतु मेधामनीषे माविशतागुं समीची भूतस्य भव्यस्यावरुध्यै सर्वमायुरयाणि ஆபிர்கீர்பிர்யதோ ந ஓ நம பியாய ஹரிவோ வர்த்தமான யதா ஸ்தோத்ருப்யோ மஹி கோத்ராருஜாசி பூயிஷ்டபாஜோ அததே ஸ்யாம ப்ரஹ்ம ப்ராவாதிஷ்மதன்னோ மஹாசீத் ஓம் சாந்தி 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 சந்தவாசிஞ்சாமி யஜுஷா ப்ரஜாமாயுர்தனம் ச ஓம் சாந்தி 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 சன்னோ மித்ரஸ்யம் வருண சன்னோ பவத்வர்யமா சன்னி లేదు అది అది మనకు ముందులో వచ్చేస్తుందిగా మొదట్లో భద్రంకరణ తర్వాత వస్తుందిగా భద్రంకరణ తర్వాత నాకు యాక్చువల్గా మొన్న హనుమంతుడి గుళ్ళు ఈ సహస్రం గారిని చేసినప్పుడు ఇంకో ఇద్దరు గుడి పూజారులు ఉంటారుగా వాళ్ళు అది అక్కడ ఎత్తేసారు అక్కడ తత్సంజారు రాల నేను మొదలుపెట్టి వాళ్ళు వెనక్కి ఆగిపోయా
మళ్ళీ
వాళ్ళు ఇక్కడెక్కడ చెప్పారు నిజంగానే నేను ఇప్పుడు అనుకున్నాను యాక్చువల్లీ ఇదేంటి ఇక్కడ చెప్పారు సార్ ఎక్కడో చెప్పారు కదా దశ శాంతులు పది శాంతులు ఎక్కడ చెప్పినా ఒకటి అలాగే అనుకున్నాను నేను మళ్ళీ మరి మనకి మనకి మహాన్యాసాది పుస్తకంలో నమో వాచే నమో వాచస్పతయే నమో విష్ణువే బృహతే కరోమి తర్వాత తచ్చయోరా వచ్చేసింది మొదట్లో వచ్చింది ఇప్పుడైతే మేధ మనీషే మా విషతాగుం సమీచి అక్కడ ఎక్కడ వచ్చింది సంతోషించామి తర్వాత చెప్పాలా సంత్వాసించామి ఇజుషా ప్రజామాయుర్ధనం చ ఓం శాంతి 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 మరి అక్కడ తీసేయాలా రాసుకుంటా ఉండండి అయితే ఓం షన్నో విష్ణురుక్రమ షన్నో మిత్రశం వరుణ శన్నో భవత్వర్యమ శన్న ఇంద్రో బృహస్పతి శన్నో విష్ణురుక్రమ నమో బ్రహ్మణే నమస్తే వాయో త్వమేవ ప్రత్యక్షం బ్రహ్మాసి త్వమేవ ప్రత్యక్షం బ్రహ్మ వదిష్యామి అరతం వదిష్యామి సత్యం వదిష్యామి తన్మామవతు తద్వక్తారమవతు అవతు మాం అవతు వక్తారం ఓం శాంతి 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 సహనావవతు సహనౌ భునక్తు సహ వీర్యం కరవావహై తేజస్వినామధీతమస్తు మా విద్విషావహై ఓం శాంతి 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 సహనావవతు సహనౌ భునక్తు సహ వీర్యం కరవావహై తేజస్వినావధీతమస్తు మా విద్విషావహై ఓం శాంతి 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 సహనావవతు సహనౌ భునక్తు సహ వీర్యం కరవావహై తేజస్వినావధీతమస్తు మా విద్విషావహై ఓం శాంతి శాంతి శాంతి
మహాన్యాసాదిలో చెప్పాను
మహాన్యాసాదిలో చెప్పాను గురుగారు